इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। भारतेन अद्य ऐतिह्यं विरचितं यत् भारतीय वायुसेनादलस्य कैप्टन शुभांशु शुक्ला एक्सियोम 4 चालकम् इत्येतं समेत्य स्पेस एक्स ड्रैगन अन्तरिक्षयानम् अन्ताराष्ट्रिय अन्तरिक्षस्थानकेन ISS सह सफलतया भारतीय समयानुसारं सायं 4 सम्मिलितम्। भारतेन चीनदेशस्य छिंगदाओ नगरे शंघाई सहयोग संगठन इत्यस्य रक्षामन्त्रिणाम् उपवेशने संयुक्त घोषणापत्रे हस्ताक्षरं कर्तुं निराकृतम्। साइबर अपराधानां डिजिटल निगडनानां च भ्रष्टाचारां विरुध्य राष्ट्रव्यापी दमनस्य कृते CBI विभागेन पञ्चराज्यानां 42 स्थानेषु ऑपरेशन चक्र 5 इत्यस्य अन्तर्गतम् अन्वेषणं कृतम्। एयर इंडिया फ्लाइट AI-171 इत्यस्य ब्लैक बॉक्स डाटा संग्रहितम्। अहमदाबाद नगरे सद्यैव दुर्घटनायाः कारणभूत घटनानां क्रमेण पुनर्निर्माणं भवेत्। अपि च नेत्रोत्सवस्य पवित्रावसरे श्रीजगन्नाथस्य भगवान बलभद्रस्य देवी सुभद्रायाः च नवजौवन दर्शनाय पुरी नगरे सहस्रं यावत् भक्ताः एकत्रिताः आसन्। भारतेन अद्य ऐतिह्यं विरचितम्। भारतीय वायुसेनादलस्य कैप्टन शुभांशु शुक्ला एक्सियोम 4 चालकम् इत्येतं समेत्य स्पेस एक्स ड्रैगन अन्तरिक्षयानम् अन्ताराष्ट्रिय अन्तरिक्षस्थानकेन ISS सह सफलतया भारतीय समयानुसारं सायं 4 सम्मिलितम्। एतेन अभियानेन भारतम् चत्वारिंशत् वर्षाणाम् अनन्तरं मानव अन्तरिक्ष उड्डयनं प्रति प्रत्यागच्छति, येन श्रीशुक्लः 84-29 वर्षे राकेश शर्मा इत्यस्य अनन्तरं अन्तरिक्षे द्वितीयः भारतीयः अस्ति। ISS याने 14 दिवसीय वैज्ञानिक अभियाने लखनऊ नगरस्य शुभांशु शुक्लः अमेरिकीय पोलैंड हंगरी देशानां अन्यत्रिभिः अन्तरिक्ष यात्रिभिः सह मिलित्वा हार्मोनी मॉड्यूल इत्यस्मिन् स्थापितः। अनेन अभियानेन वैश्विक अन्तरिक्ष प्रौद्योगिक्याः नवीनतायां भारतस्य वर्धमानं नेतृत्वं प्रकाशितम्। नासा समर्थनेन श्रीशुक्ला इसरो तथा जैव प्रौद्योगिकी विभागेन संयुक्तरूपेण विकसितानां अग्रणी जीवन विज्ञान प्रयोगानां नेतृत्वं करिष्यति। चालकदलस्य अभिवादनं कुर्वन् केन्द्रीय विज्ञान प्रौद्योगिकी मन्त्री डॉ जितेन्द्र सिंह शुक्लायाः अन्तरिक्षे प्रवेशः राष्ट्रगौरवस्य क्षणः इति उक्तवान्। भारतेन चीनदेशस्य छिंगदाओ नगरे संघाई सहयोग संगठन इत्यस्य रक्षामन्त्रिणाम् उपवेशने संयुक्त घोषणापत्रे हस्ताक्षरं कर्तुं निराकृतम्। आधिकारिक सूत्रेण प्रतिपादितं यत् भारतं संयुक्त प्रतिवेदनस्य भाषाया विषये सन्तुष्टः नैव अस्ति। अस्मिन् प्रतिवेदने पारे सीम्नि क्षेत्रे आतंकवादीनां क्रियाकलापानां स्पष्टम् उल्लेखं नास्ति। रक्षामन्त्रिणः राजनाथ सिंहस्य संयुक्त घोषणापत्रे साहमत्यं विनैव सम्मेलनमिदं संयुक्त विज्ञप्तौ समाप्तम्। SCO चार्टर इत्यस्यानुसारं संगठन मतदानं विनैव साहमत्ये निर्णयं प्रतिपादयति। रक्षामन्त्री SCO देशान् अवैध मानकानाम् अंगीकर्तुम् आग्रहं कृतवान्। सः अवदत् यत् केचन देशाः पारे सीम्नि आतंकवादं नीतीनां साधनरूपेण उपयोगं कुर्वन्ति तथा च आतंकवादिभ्यः आश्रयं यच्छन्ति। इतः पूर्वं रक्षामन्त्री राजनाथ सिंहः आतंकवादं चरमपन्थवादं विरुध्य एकीकृत वैश्विक कार्याचरणस्य आह्वानं कृतवान्। चीनदेशस्य छिंगदाओ नगरे संघाई सहयोग संघटनम् इत्यस्य रक्षामन्त्रिणाम् उपवेशने सः अवदत् यत् शान्तिः समृद्धिः च आतंकवादेन सह नैव आगन्तुं शक्नोति। असौ अवदत् यत् भारतेन पारे सीम्नि आतंकवादिनां संरचनानां विध्वंसयितुं सिन्दूराभियानेन आत्मरक्षणस्य अधिकारस्य उपयोगः कृतः। सः अवदत् यत् भारतेन प्रदर्शितं यत् आतंकवादस्य केन्द्रं सुरक्षितं नास्ति, अपि च भारतं तानि स्थलानि आलक्ष्य भेदम् अवश्यमेव करिष्यति।
India has zero tolerance for terrorism. It manifests today through its actions. This includes our right to defend ourselves against terrorism. And we have shown that epicenters of terrorism are no longer safe, and we will not hesitate to target them. We should also take proactive steps to prevent the spread of the radicalization among our youth.
शंघाई सहयोग संगठनम् 1100 वर्षे स्थापितम् एकहंत सर्वकारीय निकाय अस्ति। तत्र भारतं सप्तदशोत्तरैकशततमे वर्षे पूर्णरूपेण सदस्यं सञ्जातम्। साइबर अपराधानां डिजिटल निगडनानां च भ्रष्टाचारं विरुध्य राष्ट्रव्यापी दमनस्य कृते सीबीआई विभागेन पञ्चराज्यानां द्विचत्वारिंशत् स्थानेषु ऑपरेशन चक्र 5 इत्यस्य अन्तर्गतं निरीक्षणं कृतम्। राजस्थान, दिल्ली, हरियाणा, उत्तराखण्ड, उत्तरप्रदेशे च अन्वेषणं सञ्जातम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। एयर इंडिया फ्लाइट AI-171 इत्यस्य ब्लैक बॉक्स डाटा संगृहीतम्। अहमदाबाद नगरे सद्य एव दुर्घटनायाः कारणभूत घटनानां क्रमेण पुनर्निर्माणं भवेत्। अग्रिम ब्लैक बॉक्स इत्यस्मात् क्रैश प्रोटेक्शन मॉड्यूल इत्येतं सुरक्षितरूपेण निष्कासितं तथा च मेमोरी मॉड्यूल इत्येतं च सफलतया अभिगत्य तस्य परीक्षणं ह्यः एव दिल्ल्यां AAIB इति विमान दुर्घटना अन्वेषण अभिकरणेन प्रयोगशालायां संगृहीतम्। एकस्मिन् वक्तव्ये नागरिक उड्डयन मन्त्रालयेन उक्तं यत् दुर्घटनायाः कारणभूत घटनानां क्रमस्य पुनर्निर्माणार्थं तथा विमान सुरक्षा संवर्धनार्थं भविष्ये दुर्घटनाः निवारणाय च कॉकपिट वॉइस रिकॉर्डर, फ्लाइट डेटा रिकॉर्डर इत्येतयोः विश्लेषणं प्रचलति। पृष्ठभागस्य ब्लैक बॉक्स AIB दलेन मंगलवासरे स्वस्य दिल्ली प्रयोगशालायाम् आनीतम्। छत्तीसगढ़े सुरक्षाबलै सह आक्रमणे द्वे माओवादी महिले मारिते। नारायणपुर जनपदस्य अभूजमाड़ क्षेत्रस्य वनेषु अयं संघर्षः संजातः। क्षेत्रे माओवादिनाम् उपस्थिति विषये सूचनां प्राप्य जिला रिजर्व रक्षकः, विशेषारक्षिदलयो च संयुक्तदलं सुरक्षाभियानस्य कृते प्रेषितम् आसीत्। श्वः सायंकालादेव सुरक्षाबलानां नक्सलवादिनां च मध्ये गोलिकावर्षणं प्रचलति। निर्वाचन आयोगस्य नवसदस्यानां दलम् आगामि विधानसभा निर्वाचनानां सज्जतायाः समीक्षायै बिहारं सम्प्राप्तम्। एतद्दलं गतसायं राजधानीं पटनाम् अवाप्तम्। मुख्य निर्वाचनाधिकारी विनोद सिंह गुंजियालः मतदाता सूचिकायाः विशेष गहन समीक्षायै अन्ये अधिकारिभिः सह उच्चस्तरीयोपवेशनं कृतवान्। अद्यतन सूचनार्थं सः जिला निर्वाचन पदाधिकारिभिः, विभागीय आयुक्तैः, अन्य वरिष्ठाधिकारिभिश्च सह मिलितवान्। आयोगेन मतदातृणां सूचीनां सटीकतां सुनिश्चेतुं प्रतिगृहं गत्वा समीक्षार्थं घोषणां विहितम्। नेतोत्सवस्य पवित्रावसरे श्रीजगन्नाथस्य, भगवान बलभद्रस्य, देवी सुभद्रायाः च नवजौवन दर्शनाय पुरीनगरे सहस्रं यावत् भक्ताः एकत्रिताः आसन्। अस्मिन् विशिष्ट दर्शने 15 दिवसानां एकान्तवासस्य अनन्तरं देवतानां पुनरागमनं भवति। देवानां दर्शनाय भक्ताः प्रातः कालादेव सुदीर्घ पंक्तौ स्थिताः आसन्। दर्शनं गहन आध्यात्मिक भावान् उद्दीपयितुं प्रसिद्धम् अस्ति। अद्य श्रीजगन्नाथ मन्दिरस्य सिंहद्वारस्य समीपे भव्यरथाः आनयिष्यन्ते। श्वः प्रातः 6 रथयात्रा संस्कारः आरभ्यते। पहाण्डी इति नाम्ना प्रसिद्ध शोभायात्रा देवान् तेषां रथं प्रति नेष्यन्ते। रथकर्षणं सायंप्रातः 4 आरभ्यते इति अपेक्षा अस्ति। नवदिवसीय वासाय देवताः स्वमातुलमन्दिरं गुण्डिचामन्दिरं प्रति गमिष्यन्ति। अधिकारिणः लक्षशः भक्तानां संगठनस्य अपेक्षां कुर्वन्ति। मुख्यवार्ताः पुनरेकवारम्। भारतेन अद्य ऐतिह्यं विरचितं यत् भारतीय वायुसेनादलस्य कैप्टन शुभांशु शुक्ला, एक्जियोम 4 चालकम् इत्येतं समेत्य स्पेस एक्स ड्रैगन अन्तरिक्षयानम् अन्ताराष्ट्रिय अन्तरिक्षस्थानकेन ISS सह सफलतया भारतीय समयानुसारं सायं 4 सम्मिलितम्। भारतेन चीनदेशस्य छिंगदाओ नगरे संघाई सहयोग संगठन इत्यस्य रक्षामन्त्रिणाम् उपवेशने संयुक्त घोषणापत्रे हस्ताक्षरं कर्तुं निराकृतम्। साइबर अपराधानां डिजिटल निगडनानां च भ्रष्टाचारं विरुध्य राष्ट्रव्यापी दमनस्य कृते सीबीआई विभागेन पञ्चराज्यानां द्विचत्वारिंशत् स्थानेषु ऑपरेशन चक्र 5 इत्यस्य अन्तर्गतम् अन्वेषणं कृतम्। एयर इंडिया फ्लाइट AI-171 इत्यस्य ब्लैक बॉक्स डाटा संगृहीतम्। अहमदाबाद नगरे सद्य एव दुर्घटनायाः कारणभूत घटनानां क्रमेण पुनर्निर्माणं भवेत् इति वार्ताः।